नमस्कारः अद्य वैयाकरणभूषणसारस्य धात्वर्थ प्रकरणे द्वादशः पाठः फेब्रुवरी मासस्य द्वाविंशः दिनाङ्कः येनाक्षरसमाम्नायमधिगम्यमहेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम् श्रीलक्ष्मीरमणं नौमि गौमीरमणरूपिणं स्फोटरूपं यतः सर्वं जगदेतद्विवर्तते। भूषणसारस्य धात्वर्थप्रकरणे फलव्यापारयोर्धातुः इति कारिकायाः व्याख्यानम् अस्माभिः अधीतम्। वैयाकरणमतोन्मज्जनकारिकासु प्रथमाकारिका मङ्गलरूपा फणिभाषितभाष्याब्धेः शब्दकौस्तुभौद्धृतः तत्र निर्णीत एवार्थः सङ्क्षेपेणेह कथ्यते इति प्रतिज्ञाय भट्टोजीदीक्षितैः वैयाकरणसिद्धान्ताः सङ्क्षेपेण एतासु कारिकासु उच्यन्ते। तासां कारिकाणां व्याख्यानं कौण्डभट्टः भूषणसारे करोति। तत्र सिद्धान्तकथनपरकं सिद्धान्तकथने प्रथमा कारिका आसीत् फलव्यापारयोर्धातुः इति। फलव्यापारयोर्धातुः आश्रये तु तिङस्मृताः, फले प्रधानं व्यापारः, तिङर्थस्तु विशेषणम् इति कारिका। अर्थः सामान्येन ज्ञातः स्यात्। धातुः फलस्य व्यापारस्य च वाचकः इति वैयाकरणसिद्धान्तः। तत्र मीमांसकाः फलमात्रं धात्वर्थं मन्यन्ते, नैयायिकाः फलं व्यापारश्च धात्वर्थः, कृतिः तिङर्थः इति। वैयाकरणैस्तु फलं सर्वविधः व्यापारः, कृतिः यत्नः इति यत्किमपि भवतु सर्वविधोऽपि व्यापारः धातुना एव उच्यते इति वैयाकरणानां सिद्धान्तः। तत्र फलं पारिभाषिकं, तद्धात्वर्थत्वे सति तद्धात्वर्थजन्यत्वं वा प्रयोज्यत्वं वा फलं विक्लित्यादि पारिभाषिकं फलम् उच्यते। व्यापारस्तु साध्यत्वेन विधीयमाना क्रिया, क्रियाद्विविधा, यत्र क्रियान्तर आकाङ्क्षा उद्भवति सा क्रिया सिद्धक्रिया इत्युच्यते, यत्र तु क्रियान्तराकाङ्क्षा नास्ति सा साध्यक्रिया, साध्यक्रिया एव धातुना अभिधीयते इति सिद्धान्तः। सा च क्रिया एका न भवति, सर्वदा अवान्तरक्रिया समवेता एव, ते च अवान्तरव्यापाराः गुणभूताः अर्थात् अप्रधानाः, गुणभूतैरवदवैः समूहः क्रमजन्मना, किञ्च क्रमशः तेषाम् उत्पत्तिः भवति। बुद्ध्या प्रकल्पिता भेदः क्रियेटिव् व्यपदिश्यते इति वाक्यपदीयोक्तं क्रियालक्षणमपि दृष्टम्। आश्रये तु तिङस्मृताः, फलव्यापारयोराश्रये तिङ्प्रत्ययाः भवन्ति, अर्थात् तिङ्प्रत्ययैः फलाश्रयः कर्म एवं व्यापाराश्रयः कर्ता च उच्यते इति सिद्धान्तः। कर्तरि कर्मणि च तिङ्प्रत्ययस्य शक्तिः। फले प्रधानं व्यापारः, एवञ्च धातुना फलं व्यापारश्च उपस्थाप्यते, तिङ्प्रत्ययैः कर्ता अथवा कर्म, कालः संख्या इत्येते अर्थाः उपस्थाप्यन्ते। वाक्ये तु फले व्यापारस्य प्राधान्यं, फलनिरूपितप्राधान्यं व्यापारस्य भवति। तिङर्थस्तु विशेषणम्, कर्तकर्मसङ्ख्याकालाः सर्वदा प्रकारभूताः अथवा विशेषणान्येव भवन्ति, यतः कर्म फले विशेषणं, कर्ता व्यापारे विशेषणं, सङ्ख्या कर्तरि विशेषणं, कालः व्यापारे विशेषणम् इत्येवं सर्वविधः सम्बन्धः तत्र प्रमाणं च अस्माभिः दृष्टम्। भावनायाः प्राधान्यं, वाक्ये एवं सर्वेषु अर्थेषु उपस्थितेषु भावना अथवा व्यापारस्यैव प्राधान्यं भवति। तत्र यद्यपि प्रकृतिप्रत्ययौ सहार्थं ब्रूतः, तत्र प्रत्ययार्थः प्रधानम् इत्युच्यते, प्रायेण प्रत्ययार्थस्यैव प्राधान्यं सर्वत्र दृश्यते, तथापि भावप्रधानमाख्यातम् इति यास्कवचनप्रामाण्यात्, क्रियाप्राधान्यबोधकात् भाष्यात् क्रियावचनाः धातवः इति भाष्यप्रामाण्याच्च अत्र प्रत्ययार्थस्य प्राधान्यं नास्ति अथवा सनियमः अत्र न प्रवर्तते, अत्र तु धात्वर्थस्य व्यापारस्यैव प्राधान्यम् इति सिद्धान्तः क्रियते। अख्यातार्थ प्राधान्ये अर्थात् प्रत्ययार्थस्य प्राधान्ये अंगीकृते तस्य प्रथमान्तपदेन अभेदान्वयः दृश्यते। तेन च प्रथमान्तपदार्थ मुख्यविशेषकः शब्दबोधः नैयायिकाभिप्रेतः फलति। तथा सति कः क्लेशः पश्य मृगो धावति इत्यादिषु प्रयोगेषु भाष्येण भाष्यकारेण उपपादिता एकवाक्यता न सिद्ध्यति। पश्य मृगो धावति इत्यत्र मृगकर्तृकं यद्धावनं तत्कर्मकं दर्शनम् इति एकवाक्यतया प्रयोगः भाष्ये दृष्टः। यद्यपि पश्य इति एकं तिङन्तं धावति इत्यपरं तिङन्तं तिङन्तद्वयं दृश्यते तथापि एकतिङ्वाक्यम् इति वार्तिकानुरोधेन एकतिङन्तप्रधानं वाक्यम्। अत्र तु दर्शनक्रियायाः एव प्राधान्यं, धावनक्रिया दर्शनक्रियायां कर्मत्वेन अन्वेति विशेषणी भवति इति प्रकारेण शब्दबोधः दर्शितः। यदि प्रथमान्तार्थस्य प्राधान्यं स्वीक्रियते तर्हि पश्यमृगोधावति इति वाक्यं वाक्यस्य साधुत्वमेव न सिद्ध्यति, यतोहि तदा धावनक्रियायाः मृगे अन्वयः, धावनविशिष्टः मृगः, मृगस्य कर्मत्वेन दर्शनक्रियायाम् अन्वये द्वितीया प्रसङ्गः भवति। कर्मत्वात् मृगः कर्म इत्यतः कर्मणः अनभिहितत्वात् द्वितीया आपत्तिः भवति, अथवा लटशत्रुशानच प्रथमसमानाधिकरणे इति द्वितीया समानाधिकरण्यात् तत्र शत्रन्तस्य प्रयोगः, शत्रन्ता द्वितीया, धावन्तं मृगं पश्य इत्येव वाक्यं सिद्धं भवति। पश्य मृगो धावति इति वाक्यस्यैव साधुत्वं न सम्भवति प्रथमान्तार्थ मुख्यविशेषकशब्दबोधे अङ्गीकृते। अपि च कैश्चित् तत्र पश्य धावति मृगः तं पश्य इति तच्छब्दस्य अध्याहारः क्रियते, अध्याहारे कृते वाक्यभेदप्रसङ्गः, वाक्यद्वयं मृगः धावति इति एकं वाक्यं, तं पश्य इति पृथग् वाक्यम्, एकवाक्यता न भवति, तत्रापि अनन्वयः। अस्माभिः धावनस्य दर्शनक्रियायां कर्मत्वेन अन्वयः इष्यते विवक्ष्यते तत्तु न सिद्ध्यति, तथा सति अपि तम् इत्यनेन मृगः एव सूच्यते, अतः मृगस्यैव कर्मत्वं सिद्ध्यति न तु धावनस्य इत्यतः अनन्वयः। एवञ्च नैयायिकोक्तं प्रथमान्तार्थ मुख्यविशेषकम् अथवा विशेषकः शब्दबोधः अस्माभिः नाङ्गीक्रियते। तत्र भावनायाः द्वेधा बोधः, सामान्यतः तिङन्तप्रयोगे भावनाविशेष्यकः शब्दबोधः, तत्र धात्वर्थभावनायाः प्राधान्यम्, आख्यातार्थकर्तुः व्यापारे अन्वयः। कदाचित्तु भावनाप्रकारकः बोधः भवति अन्यतिङन्तसमभिव्याहारे, यथा पचति भवति अथवा पश्य धावति, पश्यमृगो धावति इत्यादिषु धात्वन्तर उपस्थापितभावनां प्रति भावनायाः प्रकारत्वम् अथवा विशेषणत्वं सम्भवति। अतः भावनाप्रकारकबोधं प्रति कृजन्योपस्थितिः हेतुः, कृदन्तस्थले भावनायाः विशेषणत्वम् एव न तु विशेष्यत्वम्, एवमेव धात्वन्तर उपस्थितभावनास्थले भावनाप्रकारकः शब्दबोधः अपि सिद्ध्यति। इत्युक्त्वा शब्दबोधस्य वैयाकरणमते कथं शब्दबोधः सम्भवति भिन्नानां वाक्यानां, कर्तरिप्रयोगे कर्मणि प्रयोगे नाशार्थकानां धातूनां ज्ञानाद्यर्थकानां धातूनां कथं शब्दबोधः इत्येतत् सर्वमपि कौण्डभट्टेन प्रदर्शितम्। अनेन च प्रथमकारिकायाः व्याख्यानं समाप्तम्। इदानीम् अग्रिमां कारिकाम् अवतारयति, ननु आख्यातस्य कर्तृकर्मशक्तत्वे पचति इत्यत्र उभयबोधापत्तिः, कर्तृमात्रबोधवत् कर्ममात्रस्यापि बोधापत्तिः इत्यतः तात्पर्यग्राहकमाह। किमुक्तमेतावता? इदं तृतीयकारिकायाः अवतरणम्। फलव्यापारयोस्तत्र फले तङ्यक्चिणादयः, व्यापारे शप्ष्णमाद्यास्तु द्योतयन्त्र आश्रयान्वयम् इति तृतीया कारिका, तस्य अवतरणिका इयम्। किमुच्यते? किमुक्तं पूर्वं धातुः फलं व्यापारञ्च बोधयति, तिङ्प्रत्ययः कर्तारं कर्म एवं सङ्ख्याङ्कालञ्च बोधयति, एवञ्च पचति इति यत्र तिङन्तं श्रूयते तत्र कर्तुः बोधः भवति वा कर्मणः बोधः भवति वा? अनुभवसिद्धं तु कर्तुः बोधः इत्येव, यत्र पच्यते इत्यस्ति तत्र कर्मणः बोधः, किन्तु कथम् उभयं भवतु? यथा कर्तुः कर्तृमात्रबोधवत् कर्ममात्रस्यापि बोधापत्तिः, तत्र तु तिङ्प्रत्ययः अस्ति, लःकर्मणि च भावे च इत्युक्तम्, अतः कर्मणि कर्तरि च लकाराः विधीयन्ते, अतः उभयोः बोधः भवति वा इति प्रश्नः। पचति तिङ् प्रत्ययस्य कर्तुकर्मणोः शक्तिः इति अङ्गीकृतत्वात् पचति इत्यनेन कर्तुर्बोधः भवति वा कर्मणः वा उभयोः भवति वा इति प्रश्ने कारिकारूपेण उत्तरं दीयते फलव्यापारयोस्तत्र फले तङ् यक् चिणादयः व्यापारे शप् श्नमाद्यास्तु द्योतयन्त्याश्रयान्वयम् इति कारिका कथमन्वयः तत्र फलव्यापारयोः तत्र इत्युक्ते धात्वर्थत्वेन उपस्थापितयोः अथवा धातुना उक्तयोः फलव्यापारयोः मध्ये इत्यध्याह्रियते तं यक् चिणादयः फले आश्रयान्वयं द्योतयन्ति शप्ष्णमाद्यास्तु व्यापारे आश्रयान्वयं द्योतयन्ति इति कारिकायाः अर्थः सरला कारिका वस्तुतः कथं ज्ञायते कुत्र फले अन्वयः कुत्र व्यापारे अन्वयः तङादयः फले आश्रयान्वयं द्योतयन्ति तङ् यक् चिण् इत्यादयः फले अन्वयम् अर्थात् आश्रयस्य तिङ्प्रत्ययस्य आश्रये शक्तिः आश्रयस्य कुत्र अन्वयः कदाचित् फले अन्वयः कदाचित् व्यापारे यत्र फले अन्वयः तदेव कर्म यत्र व्यापारे अन्वयः तत्र कर्ता अतः तङादयः फले आश्रयस्य अन्वयं द्योतयन्ति धात्वर्थे फले आश्रयान्वयम् अर्थात् कर्मत्वं द्योतयन्ति इत्यर्थः फलान्वय्याश्रयस्य कर्मत्वात् कर्मवाचकाः अथवा कर्मद्योतकाः तं यक् चिणादयः शप्ष्णमाद्यास्तु कर्तृद्योतकाः तङ् इति तु प्रत्याहारः तिङ् इत्यत्र अन्तिम नवप्रत्ययानां तङ् इति प्रत्याहारः तातां झथासाथां त्वम् इड्वहि महीन् इति तङ् तेषां तङानाम् आत्मनेपदम् इति आत्मनेपदसंज्ञा विद्यते भावकर्मणोः इति सूत्रेण कर्मणि आत्मनेपदविधानम् अत एव सर्वेषां धातूनां कर्मणि विवक्षिते आत्मनेपदप्रत्ययाः एव भवन्ति धातुः परस्मैपदी वा भवतु आत्मनेपदी वा भवतु उभयपदी वा भवतु कर्तरिप्रयोगे एव भेदः दृश्यते कर्मणि प्रयोगे सर्वेषामपि आत्मनेपदप्रत्ययाः एव भवन्ति भावकर्मणोः इति सूत्रेण अतः आत्मनेपदप्रत्ययाः तङ् प्रत्ययाः कर्मान्वयं कर्म द्योतयन्ति अथवा आश्रयस्य फले अन्वयं द्योतयन्ति यक् इति प्रत्ययः यथा तेन ग्रामः जगमे इत्यस्ति कर्मणि लिट्लकारः सः ग्रामं जगाम तेन ग्रामः जगमे तत्र जगमे इति लिट्लकारे गमधातोः तङ् प्रत्ययः लिटस्तथयोरेशिरेचित्यनेन त प्रत्ययः तप्रत्ययस्य एष आदेशः जगमे इति रूपं तत्र त इति प्रत्ययेन तङ् प्रत्ययाहारे यः त प्रत्ययः तेन कर्म द्योत्यते जगमे इति कर्मणि प्रयोगः तत्र कर्म उच्यते तप्रत्ययेन स एव कर्मणि अन्वयं द्योतयति सः एवं यक् सार्वधातुके यक् इति सूत्रं चिन् भावकर्मणोः इति सूत्रात् भावकर्मणोः इत्यनुवर्तते भावे कर्मणि वा प्रयोगे सार्वधातुके प्रत्यये धातोः यक् इति विकरणप्रत्ययः क्रियते सर्वेषां धातूनां गणभेदः शप् श्नम् इत्यादयः विकरणाः कर्तरिप्रयोगे एव भवन्ति कर्तरि शप् इति पठति नृत्यति तुदति इत्यादि कर्मणि प्रयोगे तु सर्वेषां गणानां सर्वेषामपि धातूनां यक् प्रत्ययः एव भवति अत एव पठ्यते नृत्यते तुद्यते चोर्यते कुत्रापि गणभेदः आत्मनेपदे क्षम्यतां कर्मणि प्रयोगे न ज्ञायते सो द डिफरेन्स् इन् एनी गण विल् नाट् बि नोन् इन् ए कर्मणि प्रयोग इन् पासिव् बिकास् आल् धातूस् आफ् आल् गणास् यूनिफार्म्लि गेट् यक् प्रत्यय सार्वधातुके यक् इति भावकर्मणोः इति अनुवृत्य यक् प्रत्ययः अपि कर्म द्योतकः फले आश्रयस्य अन्वयं द्योतयति चैत्रेण ओदनः पच्यते चैत्रः ओदनं पचति अथवा पचते आत्मनेप्रयोगः पच्धातुः उभयपदी अतः पचते इति आत्मनेपदे अपि कर्तृद्योतकत्वमेव किन्तु पच्यते इत्यत्र यः यक् प्रत्ययः सः कर्म द्योतयति चिन् तं यक् चिणादयः इत्यस्ति चिन् चिन् भावकर्मणोः इति सूत्रं सो इट् इस् इमीडियट्लि प्रिसीडिङ्ग् द यक् भावे कर्मणि च छ्लेः सो दिस् इस् वित् रिगार्ड् टु द लुङ् लकार छ्लि लुङि इत्यनेन लुङ् लकारे छ्लि प्रत्ययः छ्लेसिच इत्यादि छ्लेः स्थाने आदेशाः उच्यन्ते तत्र भावे कर्मणि च चिण् प्रत्ययः विधीयते अतः चिण् प्रत्ययः अपि कर्म द्योतयति एवं च तङ् यक् चिण् इत्यादयः प्रत्ययाः ये तु सूत्रे साक्षात् भावकर्मणोः इति उक्त्वा उक्ताः ते सर्वेपि कर्मद्योतकाः इत्यर्थः तेनैवम् अवादि सः एवम् अवादीत् इति कर्तरिप्रयोगः तेन एवम् अवादि अवादि इत्यस्य उक्तम् इत्यर्थः कर्मणि लकारः तत्र चिन् अवादि इत्यत्र अन्ते यः इकारः सः चिनः इकारः इ इति सः चिन् प्रत्ययः कर्मद्योतकः एवं तङ् यक् चिन् इत्यादयः कर्मणि विशिष्य विहिताः प्रत्ययाः फले आश्रयस्य अन्वयं द्योतयन्ति फलव्यापारयोस्तत्र फले तङ् यक् चिणादयः द्योतयन्त्याश्रयान्वयम् इति अन्वयः व्यापारान्वयी आश्रयस्य कर्तृत्वात् व्यापारे आश्रयः यदा अन्वेति तत्रैव कर्ता अर्थः इत्युच्यते अर्थात् व्यापारस्य आश्रयः कर्ता तद्द्योतकाः नाम कर्तृद्योतकाः के शप्श्नमाद्याः सर्वेपि गणनिष्ठाः विकरणप्रत्ययाः कर्तरि शप् दिवादिभ्यश्यन् तुदादिभ्यश्यः रुधादिभ्यश्नम् तनादिक्रीभ्य उः इत्यादयः सर्वेपि विकरणप्रत्ययाः क्र्यादिभ्यः श्न सर्वेपि विकरणप्रत्ययाः कर्तृद्योतकाः यतोहि कर्तरि शप् इति कर्तरि इति सर्वत्र अनुवर्तते शप् श्नम् श्यन् सर्वत्र कर्तृवाचक्यत्वे अर्थात् कर्तरि यत्र लकारः विधीयते तत्रैव शबादयः भवन्ति अतः शप्श्नमाद्याः व्यापारे आश्रयान्वयं द्योतयन्ति अर्थात् कर्तृद्योतकाः भवन्ति इत्यर्थः देवदत्तः पचति तत्र पचति पच् अ ति अ इति शप् ति इति तिप् एवमत्र शप् तिप् इति उभौ अपि प्रत्ययौ कर्तृद्योतकाः शप् प्रत्ययः अपि कर्तरि एव विधीयते तिप् अपि शेषात् कर्तरि परस्मैपदम् परस्मैपदप्रत्ययाः अपि कर्तरि एव भवन्ति इत्यतः पचति इत्यत्र कर्तृद्योतकत्वम् अस्ति एवं वन्दते वन्दते इत्यस्ति चेत् तत्र शप् प्रत्ययः कर्तारं द्योतयति श्नम् रुदादिभ्यश्नम् इत्यनेन श्नम् इति आगमः शप्श्नमोः भेदः तदेव शप् आदेशः श्नम् इति मित्वात् अन्त्यादतः परः आगमः गाम् रुणद्धि इत्यस्ति रुणद्धि इत्यत्र श्नम् प्रत्ययः अथवा रुन्धे इत्यत्रापि श्नम् प्रत्ययः कर्तृद्योतकः भवति द्योतयन्ति इत्यस्य तात्पर्यं ग्राहयन्ति इत्यर्थः आल्वेज् द्योतक वर्सस् वाचक इस् अ डिस्टिङ्क्षन् विच् इस् आल्वेस् टु बि मेड् भेदः अस्ति वाचकः द्योतकः इति वाचकः नाम शक्तिः अस्ति इत्युक्ते तिङ् प्रत्ययः कर्तुः वाचकः अथवा कर्मणः वाचकः सो द तिङ् डिरेक्ट्लि एक्स्प्रेसस् कर्ता आर् कर्म बट् यक् डस् नाट् क्यारी एनि मीनिङ्ग् यक् प्रत्ययः अस्ति सः वाचकः न केवलं द्योतकः सो द्योतकः इस् संथिङ्ग् विच् ब्रिङ्ग्स् औट् द मीनिङ्ग् प्रेसेण्ट् इन् संथिङ्ग् एल्स् ओके इट् डस् नाट् क्यारी एनि मीनिङ्ग् आफ् इट्स् ओन् It simply helps in the expression of meaning of a different particle, that is Dyotaka. Vachaka is something which expresses its own meaning. But Dyotaka is something which simply brings out the meaning, which is usually a part of some other particle. Okay, say for example, when we say Upasargas, Upasargaha samanyataha Dyotakaha ityeva uchyate, natu Vachakaha. Upasargasya sviyaha arthaha na bhavati. सर्वे अर्थाः धातोः एव इदानीं भवति इति धातुः यत्र अस्ति तस्यैव धातोः सत्ता अर्थः अनुभवः अर्थः प्रभावः ये ये अर्थाः ते सर्वेपि धातुना एव उच्यन्ते सर्वोपि व्यापारः तत्फलं च धातुना एव उच्यते सो वेन् वि यूस् भवति वि यूस् प्रभवति अनुभवति अभिभवति आल् आफ् देम् आर् यूस्ड् इन् डिफरेण्ट् सेन्सस् बट् आक्चुलि आल् द मीनिङ्ग्स् which can be expressed, are expressed by the dhatu. Tatra dhatuhu eva sarvesham arthanam vachakaha. तर्हि उपसर्गस्य किं कार्यम् इति चेत् द्योतकम् इट्स् हेल्प्स् द धातु टु एक्स्प्रेस् अ पर्टिक्युलर् मीनिङ्ग् सो द उपसर्ग डस् नाट् हेव् अ मीनिङ्ग् आफ् इट्स् ओन् सो इन् असोसियेशन् वित् डिफरेण्ट् धातुस् द उपसर्गस् हेल्प् टु ब्रिङ्ग् औट् द डिफरेण्ट् सेन्सस् सोरि एवं वाचकं द्योतकम् इति अत्र तु द्योतयन्ति नाम तात्पर्यं ग्राहयन्ति तात्पर्यं नाम वक्तुः इच्छाविशेषः इत्युक्ते यत्र तिङ्प्रत्ययः कर्तारं बोधयतु इति तात्पर्यं भवति अथवा कर्म बोधयतु इति विवक्षा तदेव तात्पर्यं नाम विवक्षा तात्पर्यस्य ग्राहकः यत्र कर्तृबोधे तात्पर्यमस्ति तत्र यगादिभिः तत् द्योत्यते न तु उच्यते तिङ्प्रत्ययेन उच्यते तस्य द्योतनं तु यगादिभिः क्रियते एवमेव शबादिभिः ईद् नीदर् द शप् श्यन् एट्सेट्रा नार् यण् चिन् सोरि यक् चिन् एट्सेट्रा दे डु नाट् हेव् एनी मीनिङ्ग् आफ् देर् ओन् दे जस्ट् हेल्प् आर् दे जस्ट् डिनोट् द मीनिङ्ग् विच् इस् एक्स्प्रेस्ड् बै द प्रत्यय इट्सेल्फ् अतः द्योतकं नाम तात्पर्यग्राहकम् इत्येतत् दिस् इस् द डेफिनेशन् विच् होल्ड्स् गुड् अक्रास् द शास्त्र नाट् जस्ट् हियर् व्याकरणशास्त्रे सर्वत्र उपसर्गाः द्योतकाः निपाताः द्योतकाः बहुत्र उपयुज्यते द्योतकत्वं नाम वाचकत्वं नास्ति दे डु नाट् एक्स्प्रेस् द मीनिङ्ग् आफ् देर् ओन् दे जस्ट् हेल्प् सम् अदर् पार्टिकल् टु एक्स्प्रेस् देर् मीनिङ्ग् इत्यर्थः एवञ्च किं जातं कारिकायां फलव्यापारयोस्तत्र फले तङ् यक् चिणादयः व्यापारे शप् श्नमाद्यास्तु द्योतयन्त्याश्रयान्वयम् तङ् यक् चिन् इत्यादयः फले आश्रयस्य अन्वयम् द्योतयन्ति अर्थात् कर्मद्योतकाः भवन्ति शप् श्नम् इत्यादयः तु व्यापारे आश्रयस्य अन्वयम् द्योतयन्ति अर्थात् कर्तृद्योतकाः भवन्ति इति कारिकायाः अर्थः दट् इस् आल् आफ्टर् स्पेण्डिङ्ग् 11 क्लासेस् आन् वन् कारिका It feels good to spend only half a class on the second karika. Api cha ekaha amshaha smartavyaha upalakshana matram. This is not a very strict definition. Saying that tang yak chin they denote the karma or that shapshnam etc. denote karta. It's an indicator. Okay? Upalakshanam nama लक्षणं न इट्स् नाट् अ स्ट्रिक्ट् डेफिनेशन् इट् इस् जस्ट् अन् इण्डिकेटर् ओके वी डू सी केसस् वेर् से राजा विप्राय गां दत्ते इति प्रयोगः ददाति इति इत्यर्थे एव दत्ते इति प्रयोगः उभयपदी धातुः तत्र दत्ते इत्यस्ति तत्र कोऽपि विकरणः नास्ति जुहोत्यादिगणः जुहोत्यादिभ्यश्लुः इत्यनेन शपः लोपः नास्ति शप् किञ्च तङ् अर्थात् आत्मनेपदम् अस्ति तथापि अत्र कर्तुः एव बोधः न तु कर्मणः राजा दत्ते इत्यनेन कर्तुः एव बोधः शबभावेऽपि तङः दत्त्वेऽपि कर्तृत्वस्यैव प्रतीतिः न तु कर्मणः एवं देवदत्तः ओदनं पेचे पपाच इति यथा लिट्लकारः आत्मनेपदे लिट्लकारे पेचे इति प्रयोगः अथवा लृट्लकारे पक्ष्यति पक्ष्यते आत्मनेपदे पक्ष्यते इति प्रयोगः देवदत्तः ओदनं पेचे देवदत्तः कुक्ड् रैस् इत्येव अर्थः अथवा देवदत्तः ओदनं पक्ष्यते देवदत्तेन ओदनः पेचे देवदत्तेन ओदनः पक्ष्यते समानं क्रियापदं क्वचित् कर्तुः प्रतीतिः क्वचित् कर्मणः प्रतीतिः अत्रापि नास्ति शप्श्नमादयः न सन्ति यक् क्वचिदस्ति क्वचिन्नास्ति न ज्ञायते अतः एक्स्क्यूस् मी जस्ट् वन् मोमेण्ट्
किमाशकं
एवञ्च समानक्रियापदेन क्वचित् कर्तुः क्वचित् कर्मणः प्रतीतिः भवति. अत्र कुत्रापि शप्नमाद्यैः वा तङ्क्चिनादिभिः वा कर्तृकर्मणोः प्रती द्योतनं न भवति, अर्थात् न शक्यते. तत्तु उपलक्षणमात्रं. तेषां सत्त्वे तेषां दर्शनेन कर्तुः कर्मणः वा प्रतीतिः अनुमातुं शक्यते, किन्तु तदभावेऽपि अस्माभिः कर्तुः प्रतीतिः कर्मणः प्रतीतिः भवति. समभिव्याहारविशेषात् बोधः इति वदन्ति, अर्थात् यत्र प्रथमान्तकर्तृपदसमभिव्याहारः देवदत्तः पेचे इति अथवा राजा दत्ते इति प्रथमान्तकर्तृपदस्य प्रथमान्तत्वे सति कर्तुः बोधः तिङन्तेन इति, तृतीयान्तकर्तृपदसमभिव्याहारे देवदत्तेन पेचे अथवा देवदत्तेन पक्ष्यते इति तृतीयान्तकर्तृपदस्य समभिव्याहारे कर्मणः बोधः इत्यादि ज्ञातव्यम्. सो इट् डिपेण्ड्स् अकार्डिङ्ग् टु द काण्टेक्स्ट्. ओके, दट् इस् वाट् वि मीन् बै काण्टेक्स्ट्. देर् इस् नो डेफिनेट् रूल् विच् विल् से दिस् इस् एक्टिव् वाय्स्, दिस् इस् पासिव्. दट् इस् कर्तुः तिङ् प्रत्ययेन कर्तुः बोधः अथवा कर्मणः बोधः इत्यत्र प्रायेण यगादयः शबादयः वा द्योतकाः भवन्ति, किन्तु क्वचिन्न भवन्ति. तथापि समभिव्याहृतपदानां बलेन कर्तृवाचकत्वं कर्मवाचकत्वं वा ज्ञातुं शक्यते. कर्तृपदे अप्रयुक्ते कदाचित् कर्तृपदं न स्यात्, अध्याहारेण बोधः भवति इति ज्ञातव्यम्. सो द थिङ्ग्स् विच् आर् एक्स्प्रेस्ड् इन् द कारिका आर् जस्ट् इण्डिकेटिव् एण्ड् नाट् अ डेफिनेटिव् लिस्ट्. अग्रे चतुर्थकारिका अस्ति. चतुर्थकारिकायाः अध्ययनात् पूर्वम् एकः अंशः अस्माभिः ज्ञातव्यः, a concept called karmavadbhava. Have you heard of karmavadbhava? Yeah, namaste. Karmavadbhava nama kaha? Any idea? Anybody? Karmavadbhava. Kutra karmavadbhava nama kaha? Karmavat karmanak tulya kriyaha iti sutram. Kim uchyate? एड कीयति इत्यादि सुब्धातवः. कर्मवद्भावः इति कश्चित् काचित् प्रक्रिया अस्ति. कर्मवत् कर्मणातुल्यक्रियः इति सूत्रम् अग्रे अस्यां चतुर्थकारिकायां पुनः अग्रिमकारिकासु अस्य प्रसक्तिः पुनः पुनः अस्ति. अतः आदौ केवलं कर्मवद्भावम् अवगच्छामः. सो दिस् मेटर् इस् नाट् इन् द भूषणसार. दिस् इस् फ्रम् द कौमुदी. अन्फार्चुनेट्लि नोबडि गोस् टु द कौमुदी टु दट् एक्स्टेण्ट् इट् इस् देर् ऐ थिङ्क् इन् द थर्ड् पार्ट् एण्ड् आफ् द थर्ड् पार्ट् आर् द फोर्थ् पार्ट्. सो इट्स् सम्थिङ्ग् विच् इस् नाट् नार्मलि नोन्. विवक्षातः कारकाणि भवन्ति इति अस्माकं सिद्धान्तः. कारकं कर्ता, कर्म, करणम् इत्यादि यत्र उच्यते, एकस्मिन् पदार्थे कर्तृत्वं, कर्मत्वं, करणत्वं सर्वमपि सम्भवति विवक्षाम् आश्रित्य. यदि अधिकरणत्वेन कस्यचित् पदार्थस्य विवक्षा, तर्हि आधारत्वेन विवक्षा, तर्हि अधिकरणं भवति. यदि साधनत्वेन, साधकतमत्वेन विवक्षा, तर्हि करणं भवति. यदि ईप्सिततमत्वेन विवक्षा, तर्हि कर्म भवति इत्यादि. यदि स्वातन्त्र्येण विवक्षा, तर्हि कर्ता भवति. समानः पदार्थः, द सेम् आब्जेक्ट् केन् पर्फार्म् डिफरेण्ट् फङ्क्षन्स्, दट् इस् इट् केन् टेक् आन् डिफरेण्ट् कारकास् बेस्ड् आन् द विवक्षा. Say for example, I could say Ramaha Brahmastrena Ravanam Jaghana. Rama killed Ravana with Brahmastra. Atra Swatantriyam Ramasya Vivakshitam, Ataha Ramaha Karta. Brahmastram Sadhanatamatvena Vivakshitam, Ataha Tasya Karanatvam Asti. Brahmastrena Ravanam Jaghana. Brahmastram Ravanam Jaghana. The Brahmastra killed Ravana. Ityapi Prayogaha Bhavitum Arhati. तत्र ब्रह्मास्त्रस्य स्वातन्त्र्येणैव विवक्षा न तु साधकतमत्वेन, अतः तस्य कर्तृत्वं ब्रह्मास्त्रम् एवं सर्वत्र भवति। तथा स्थाल्यां पचति, आधारत्वेन यत्र स्थाली विवक्ष्यते तत्र अधिकरणसंज्ञा भवति, स्थाल्यां पचति इति प्रयोगः। स्थाली पचति इत्यपि प्रयोगः अत्यन्तं प्रसिद्धः, इट् इस् वन् आफ् द स्टाण्डर्ड् एक्साम्पल्स् गिवन् फार् अन् इण्टर्चेञ्जबल् कारक। स्थाली पचति, द वेसल् कुक्स्, कः अर्थः? अधिकरणस्य कर्तृत्वं नाम स्वातन्त्र्यविवक्षा, तत्र कर्तुः प्रयत्नविशेषं विनापि, विथौट् रिक्वैरिङ्ग् एनी स्पेशल् एफर्ट् फ्रम् द वन् हू इस् कुकिङ्ग्, द वेसल् इस् केपेबल् आफ् कुकिङ्ग्। से फार् एक्साम्पल् अ कुक्कर्, विच् इस् ऐ मीन् इन् अ मोडर्न् कान्टेक्स्ट् अ कुक्कर् मेक्स् इट् सो ईजी दट् यू डोण्ट् हाव् टु लुक् आर् स्पेण्ड् टैम् स्टरिङ्ग् द दिस् थिङ्ग् आर् वाट् एवर्, आर् अ मैक्रोवेव्, यू जस्ट् सेट् अ टैमर् एण्ड् यू कम् अवे एण्ड् इट् कुक्स् बै इट् सेल्फ्। सो यत्र साधनस्य सौकर्यविशेषं विवक्ष्यते, सो इट् डस् नाट् मीन् दट् द वेसल् विल् कुक् बै इट् सेल्फ्। वस्तुतः स्वातन्त्र्यं न स्यात्, अ वेसल् केप्ट् बै इट् सेल्फ् मे नाट् बि एबल् टु कुक्, बट् विवक्षा का? तत्र तस्य पदार्थस्य यः व्यापारविशेषः तस्यैव विवक्षा। सो वि इण्टेण्ड् टु एम्फसैज् आर् फोकस् आन् द सूटबिलिटि आफ् दट् पदार्थ, सो दट् द intervention, external intervention of a karta is minimal. अत एव अधिकरणस्य कर्तृत्वेन विवक्षा भवति। एवमेव असिना छिनत्ति, असिः छिनत्ति, असिः नाम खड्गः, a sword, असिना छिनत्ति, it is normally an instrument, साधनम्। असिश्छिनत्ति इत्यपि प्रयोगः अस्ति, यथा मया ब्रह्मास्त्रं रावणं जघान इत्युक्तं, तथा तस्यैव कर्तृत्वविवक्षायां कर्तृत्वेन प्रयोगः शक्यते। स्थाली पचति, असिश्चिनति इत्यादयः साधु प्रयोगाः। ओदनं पचति, देवदत्तः ओदनं पचति, ओदनम् इति द्वितीयान्तं कर्म, तस्य कर्तृत्वविवक्षायां किं भवति, किं रूपं स्यात् इति प्रश्नः। यथा सर्वेषां कारकाणां कर्तृत्वेन विवक्षा भवति, तथा कर्मणः अपि कर्तृत्वेन विवक्षा भवति। द रैस् इस् एस्पेशलि सूटेड् फार् कुकिङ्ग्, इट् डस् नाट् रिक्वैर् any effort. Ityarthe, kim kaha prayogaha? Going by the normal usage, it says thali pachati, asishthinati, odanah pachati, iti prayogaha syat. Kintu odanah pachati iti na bhavati. Tadrishah prayogaha nasti. Odanah pachati would mean the rice cooks something else. It does not mean the rice is being cooked. Tatra kaha prayogaha? Odanah pachyate iti prayogaha. So, etam prayogam sadhayitum, इदं सूत्रमस्ति कर्मवत् कर्मणा तुल्यक्रियः, अयमेव कर्मवद्भावः इति पौनःपुन्येन उच्यते। कर्मवत् भवति, किं भवति? कर्ता कर्मवद्भवति इत्यर्थः। कर्मस्थया क्रियया तुल्यक्रियः कर्ता कर्मवत् स्यात् इति सूत्रार्थः सिद्धान्तकौमुद्यां दीयते। कर्मस्था क्रिया अर्थात् कर्मणः कर्तृत्वेन विवक्षायां कर्ता कर्मवद् भवति, इवन् दो इट् इस् द कर्ता इट् विल् बिहेव् लैक् कर्म, अत एव कर्मवद् भावः इति उच्यते। कर्मवद् भवति इत्यस्य कः अर्थः? कार्यातिदेशः, कर्मणि प्रयोगे यानि यानि कार्याणि भवन्ति तानि कार्याणि कर्तरि प्रयोगेऽपि भवन्ति। प्रयोगः कर्तरि प्रयोगः, किन्तु कर्मणि प्रयोगवत् कार्याणि भवन्ति। कानि तानि कार्याणि? तेन यक् आत्मनेपद छिन् छिन्वदितः स्युः, एतानि सर्वाणि कार्याणि कर्मणि प्रयोगे एव भवन्ति। यथा उक्तं भावकर्मणोः यक् भवति, आत्मनेपदप्रत्ययाः भवन्ति, छिन् प्रत्ययः भवन्ति, चिन्वद्भावः इत्यस्ति, सोऽपि भवति। एतत् सर्वमपि भवति कर्तरिप्रयोगे, अर्थः कर्तुः लकारस्य कर्तृद्योतकत्वेऽपि एते प्रयोगाः भवन्ति। कर्तुः अभिहितत्वात् प्रथमा, किन्तु लकारः कर्तरि, सो द लकारविधान इस् कर्तरि, अतः कर्ता अभिहितः, अभिहितत्वात् प्रथम, सो यु विल् हाव् ओदनः, बट् पच्यते, पच्यते इत्यनेन कर्ता, इट् इस् नाट् द रैस् ईस् कुक्ड्, कर्मणि प्रयोगः न, देवदत्तेन ओदनः पच्यते इति भिन्नः, पच्यते ओदनः स्वयमेव, द रैस् कुक्स् गेट्स् कुक्ड् बै इट् सेल्फ् इति प्रयोगः ಕರ್ತರಿ ಪ್ರಯೋಗ ಕಿಂತು ಕಾರ್ಯಾಣಿ ಕರ್ಮವದ್ ಭವಂತಿ. ಸೊ ದೇರ್ ಇಸ್ ಆಲ್ವೇಸ್ ಎ ಡಿಫಿಕಲ್ಟಿ ಇನ್ ಅಂಡರ್ಸ್ಟ್ಯಾಂಡಿಂಗ್ ಇಸ್ ಇಟ್ ಕರ್ಮಣಿ ಪ್ರಯೋಗ ಆರ್ ಕರ್ತರಿ, ಬಿಕಾಸ್ ಇಟ್ ಇಸ್ ಕರ್ಮವದ್ ಭಾವ. ಓಕೆ, ಇಟ್ ಡಸ್ ನಾಟ್ ಹ್ಯಾಪನ್ ಫಾರ್ ಎನಿ ಅದರ್ ಕಾರಕ. ಫಾರ್ ಆಲ್ ಅದರ್ ಕಾರಕಾಸ್ ಯು ಹ್ಯಾವ್ ಸ್ಥಾಲಿ ಪಚತಿ ಅಸಿಹಿ ಚಿನತ್ತಿ, ಡೈರೆಕ್ಟ್ ಕರ್ತರಿ ಪ್ರಯೋಗ. ಕಿಂತು ಯದಾ ಕರ್ಮಣಃ ಕರ್ತೃತ್ವ ವಿವಕ್ಷಾ ಭವತಿ ತತ್ರ ಕರ್ಮವದ್ ಭಾವ ಇತಿ ಕಿಂಚಿತ್ ದೃಶ್ಯತೆ. ಓಕೆ, ಓದನಃ ಪಚ್ಯತೆ ಇತಿ ಉದಾಹರಣಂ. ಪಚ್ಯತೆ ಓದನಃ ಸ್ವಯಮೇವ, ತತ್ರ ಓದನಃ ಇತಿ ಕರ್ತಾ ನತು ಕರ್ಮ. ಓದನ ಇಸ್ ದ ಕರ್ತ, ಪಾಕ ವ್ಯಾಪಾರೇ ಓದನಃ ಕರ್ತ. ಕಿಂತು ಪಚ್ಯತೆ ಇತ್ಯಪಿ ಕರ್ತರಿ ಲಕಾರಃ, ಲಟ್ಲಕಾರಃ ಕರ್ತರಿ ವಿಹಿತಃ. ಕಿಂತು ಕರ್ಮವದ್ ಭಾವಃ ಕೃತಃ ಇತ್ಯತಃ ಯಕ್ ಪ್ರತ್ಯಯಃ ಆತ್ಮನೇಪದ ಪ್ರತ್ಯಯಶ್ಚ ದೃಶ್ಯತೆ ಅಯಂ ಕರ್ಮವದ್ ಭಾವಃ. ಕಃ ಅರ್ಥಃ ಪಚ್ಯತೆ ಓದನಃ ಸ್ವಯಮೇವ ಇತ್ಯಸ್ಯ ಭೂತ್ಕಾರಾದಿ ಪುರುಷ ಶ್ರಮಾತಿಶಯ ವಿಶೇಷಂ ವಿನಾ ವಿಕ್ಲಿಪ್ತ್ಯಾಶ್ರಯೋ ಭವತಿ. ಯು ಡು ನಾಟ್ ರಿಕ್ವೈರ್ ಟು ಪುಟ್ ಇನ್ ಅ ಲಾಟ್ ಆಫ್ ಎಫರ್ಟ್ ಟು ಕುಕ್, ಇಟ್ ಗೆಟ್ಸ್ ಈಸಿಲಿ ಕುಕ್ಡ್. ಸೊ ದೇರ್ ಆರ್ ಸಮ್ ಕೇಸಸ್ ವೇರ್ ಐ ಸೇ, ಐ ಮೀನ್ ಸೇ ಸಮಟೈಮ್ಸ್ ಇನ್ ಚೆನ್ನೈ ಇಫ್ ಯು ಆರ್ ಇನ್ ಅ ಕಾರ್ ಯು ಕೀಪ್ ಸಮಥಿಂಗ್, ಯು ಕೀಪ್ ರೈಸ್, ಇಟ್ ಇಸ್ ಸೋ ಹಾಟ್ ದಟ್ ಇಟ್ ಗೆಟ್ಸ್ ಕುಕ್ ಟು, ಇಟ್ ಬಿಕಮ್ಸ್ ಕುಕ್ ಬೈ ಇಟ್ ಸೆಲ್ಫ್. ಐ ಮೀನ್ ದಟ್ ಇಸ್ ಅ ಪ್ರಯೋಗ ವಿ ಡೂ ಇನ್ ನಾರ್ಮಲ್ ಯೂಸೇಜ್. ಓಕೆ, ಇಟ್ ಇಸ್ ಆಸ್ ಇಫ್ ಐ ಮೀನ್ ಬಿಕಾಸ್ ಆಫ್ ದ ಎಕ್ಸ್ಟರ್ನಲ್ ಹೀಟ್ ವಿಥೌಟ್ ಎನಿ ಇಫರ್ಟ್ ಇಟ್ ಗೆಟ್ಸ್ ಕುಕ್ಡ್, ಸೇ ವೆಜಿಟೇಬಲ್ಸ್ ಆರ್ ಎನಿಥಿಂಗ್. ಸೊ ಇಟ್ ಇಸ್ ಯೂಸ್ಡ್ ಇನ್ ಸಚ್ ಕಾಂಟೆಕ್ಸ್ಟ್. ಓಕೆ, ಕರ್ತುಹು ಪ್ರಯತ್ನ ವಿಶೇಷಂ ವಿನಾ ಕರ್ಮ ಸ್ವಯಂ ವಿಕ್ಲಿತ್ಯಾಶ್ರಯಃ ಭವತಿ ಇತ್ಯರ್ಥಃ. ಅತಃ ಅತ್ರ ಕರ್ತಾ ಓದನಃ ಏವ, ದೇರ್ ಇಸ್ ನೋ ಅದರ್ ಕರ್ತ, ಓದನ ಇಟ್ ಸೆಲ್ಫ್ ಇಸ್ ದ ಕರ್ತ ಅಂಡ್ ಇಟ್ ಇಸ್ ಗೆಟಿಂಗ್ ಕುಕ್ಡ್ ಬೈ ಇಟ್ ಸೆಲ್ಫ್, ದಟ್ ಇಸ್ ದ ವಿವಕ್ಷಾ. ಭಿದ್ಯತೆ ಕಾಷ್ಠಂ ಎತದಪಿ ದೃಶ್ಯತೆ, ದ ವುಡ್ ಸ್ಲೈಸಸ್, ಇಟ್ ಇಸ್ ನಾಟ್ ಬೈ ಸಂಬಡಿ ಎಲ್ಸ್ ಟೇಕಿಂಗ್ ಎನ್ ಆಕ್ಸ್ ಅಂಡ್ ಹ್ಯಾಕಿಂಗ್ ಇಟ್, ಇಟ್ ಸ್ಪ್ಲಿಟ್ಸ್ ಬೈ ಇಟ್ ಸೆಲ್ಫ್, ಮೇ ಬಿ ಡ್ಯೂ ಟು ಹೀಟ್, ಮೇ ಬಿ ಡ್ಯೂ ಟು ಎಕ್ಸ್ಪಾನ್ಷನ್, ಎನಿಥಿಂಗ್ ಕುಡ್ ಬಿ ಎನಿ ರೀಸನ್. ಕುಠಾರಾದಿ ದೃಢಾಘಾತಂ ಪುರುಷ ಶ್ರಮಂ ವಿನಾ ಕರ್ತುಹು ವ್ಯಾಪಾರ ವಿಶೇಷಂ ವಿನಾ ಸ್ವಯಂ ದ್ವಿಧಾ ಭವತಿ ಕಾಷ್ಠಂ ಇತ್ಯರ್ಥೇ ಭಿದ್ಯತೆ ಕಾಷ್ಠಂ ಇತಿ ಪ್ರಯೋಗಃ. ಅತ್ರಾಪಿ ಕಾಷ್ಠಂ ಕರ್ತಾ, ಭಿದ್ಯತೆ ಕಾಷ್ಠಂ ಭಿದ್ಯತೆ ಇತಿ ಕರ್ತರಿ ಪ್ರಯೋಗಃ. ಏವಮೇವ ಅಪಾಚಿ ಅಭೇದಿ ಇತ್ಯಾದಿ, ತತ್ರ ಪಚ್ಯತೆ ಭಿದ್ಯತೆ ಇತ್ಯತ್ರ ಯಕ್ ದೃಶ್ಯತೆ ಆತ್ಮನೇಪದಂ ದೃಶ್ಯತೆ, ಅಪಾಚಿ ಅಭೇದಿ ಇತ್ಯಾದಿಷು ಚಿಣ್ ದೃಶ್ಯತೆ. ಓದನಃ ಅಪಾಚಿ ಸಯೇವ ಅರ್ಥಃ, ಓದನಃ ಪಚ್ಯತೆ ಇತ್ಯತ್ರ ಯಃ ಅರ್ಥಃ ಸಯೇವ ಅರ್ಥಃ ಕಾಷ್ಠಂ ಅಭೇದಿ. ಏವಂ ಕರ್ಮವತ್ ಕಲ್ಪಣಾತುಲ್ಯಕ್ರಿಯಃ ಇತ್ಯನೇನ ಕರ್ಮವದ್ ಭಾವಃ ಕರ್ಮಣಃ ಕರ್ತುಃ ಕರ್ತೃತ್ವ ವಿವಕ್ಷಾಯಾಮಪಿ ರೂಪೇ ಕರ್ಮವದ್ ಭಾವಃ ಕರ್ಮವತ್ ಕಾರ್ಯಾಣಿ ಅತಿದಿಶ್ಯಂತೆ ಅನೇನ ಸೂತ್ರೇಣ. ಕಿಂತು ಅಯಂ ವಿಶೇಷಃ ಅತ್ರ ಧಾತವಃ ದ್ವಿವಿಧಾಃ ಭವಂತಿ, ಕೇಚನ ಧಾತವಃ ಕರ್ಮಸ್ಥಕ್ರಿಯಾಃ ಅಪರೇ ಕೇಚನ ಕರ್ತೃಸ್ಥಕ್ರಿಯಾಃ. ಯತ್ರ ಕರ್ಮಣಿ ಕ್ರಿಯಾಕೃತಃ ವಿಶೇಷಃ ದೃಶ್ಯತೆ ಯಥಾ ಪಕ್ವೇಷು ತಂಡುಲೇಷು ಯಥಾವಾ ಛಿನ್ನೇಷು ಕಾಷ್ಠೇಷು ತತ್ರ ಕರ್ಮಸ್ಥ ಕ್ರಿಯಾ ನೇತರತ್ರ. ಸೊ ದೇರ್ ಆರ್ ಟೂ ಕೈಂಡ್ಸ್ ಆಫ್ ಧಾತುಸ್, ಒನ್ ಇಸ್ ಕಾಲ್ಡ್ ಎ ಕರ್ಮಸ್ಥ ಕ್ರಿಯಾ ಅಂಡ್ ದ ಅದರ್ ಇಸ್ ಕಾಲ್ಡ್ ಎ ಕರ್ತೃಸ್ಥ ಕ್ರಿಯಾ. ಸೊ ದ ಧಾತುಸ್, ಕರ್ಮಸ್ಥ ಕ್ರಿಯಾ ಇಸ್ ಸಚ್ ಅನ್ ಆಕ್ಷನ್ ವೇರ್ ದ ವ್ಯಾಪಾರ ಪ್ರೊಡ್ಯೂಸಸ್ ಅ ವಿಸಿಬಲ್ ಚೇಂಜ್ ಇನ್ ದ ಕರ್ಮ. ಯಥಾ ಪಚತಿ ಇತ್ಯತ್ರ ವಿಕ್ಲಿಪ್ತಿ ರೂಪಃ ವಿಶೇಷಃ ಕರ್ಮಣಿ ದೃಶ್ಯತೆ. ಏವಂ ಭಿನತ್ತಿ ಇತ್ಯತ್ರ ಭಿನ್ನಂ ಯದಸ್ತಿ ದ್ವೈಧೀಭವನ ರೂಪಃ ವಿಶೇಷಃ ಕರ್ಮಣಿ ದೃಶ್ಯತೆ. ಗಚ್ಚತಿ ಗೃಹಂ ಗಚ್ಚತಿ, ಗೃಹೇ ಕೋಪಿ ವಿಶೇಷಃ ನ ದೃಶ್ಯತೆ. ವೆದರ್ ಯು ಗೋ ಹೋಮ್ ಆರ್ ನಾಟ್ ಯು ಕೆನಾಟ್ ಟೆಲ್ ಬೈ ಲುಕಿಂಗ್ ಎಟ್ ದ ಗೃಹ, ಬೈ ಲುಕಿಂಗ್ ಎಟ್ ದ ಕರ್ಮ. ಪಾಠಂ ಪಠತಿ, ಸೊ ಬೈ ಲುಕಿಂಗ್ ಎಟ್ ಯುವರ್ ಬುಕ್ ಯು ಕೆನಾಟ್ ಮೇಕ್ ಔಟ್ ವೆದರ್ ಯು ಹ್ಯಾವ್ ರೆಡ್ ಇಟ್ ಆರ್ ನಾಟ್. ಸೊ ದೇರ್ ಇಸ್ ನೋ ಕ್ರಿಯಾಕೃತ ವಿಶೇಷ ಇನ್ ದ ಕರ್ಮ. ಯತ್ರ ಕರ್ಮಣಿ ಕ್ರಿಯಾಕೃತ ವಿಶೇಷ ದೃಶ್ಯತೆ ತಾದೃಶ ಕ್ರಿಯಾ ಕರ್ಮಸ್ಥ ಕ್ರಿಯಾ, ವೇರ್ ದ ಕ್ರಿಯಾ ಆರ್ ಅ ಚೇಂಜ್ ಡ್ಯೂ ಟು ಆಕ್ಷನ್ ಇಸ್ ವಿಸಿಬಲ್ ಇನ್ ದ ಕರ್ಮ. ವೇರ್ ಲುಕಿಂಗ್ ಎಟ್ ದ ಕರ್ಮ ಯು ಕ್ಯಾನ್ ಟೆಲ್ ವೆದರ್ ದ ಆಕ್ಷನ್ ಹ್ಯಾಸ್ ಹ್ಯಾಪನ್ಡ್ ಆರ್ ನಾಟ್. ಲುಕಿಂಗ್ ಎಟ್ ರೈಸ್ ಯು ಕ್ಯಾನ್ ಟೆಲ್ ವೆದರ್ ಇಟ್ ಹ್ಯಾಸ್ ಬೀನ್ ಕುಕ್ಡ್ ಆರ್ ನಾಟ್. ಲುಕಿಂಗ್ ಎಟ್ ಅ ಪೀಸ್ ಆಫ್ ವುಡ್
यु केन् टेल् वेदर् इट् इस् लैस्ड् आर् नाट्. सो ताः क्रियाः कर्मस्थक्रियाः, किन्तु पठति, जानाति इत्यादयः क्रियाः कर्तृस्थक्रियाः. तत्र कर्मणः दर्शनेन कर्मणि क्रियाकृतः विशेषः न दृश्यते. सो कर्मवद्भावः अप्लैस् ओन्ली फार् कर्मस्थक्रियाः. यत्र कर्मणि क्रियाकृतः विशेषः दृश्यते तत्रैव कर्मवद्भावः. कर्तृस्थक्रियेभ्यः मा भूत्, बट् इफ् द एक्शन् इस् कर्तृस्थक्रिया तर्हि तत्र कर्मवद्भावः न भवति. कर्मणः कर्तृत्वविवक्षा भवति किन्तु कर्मवद्भावः न भवति. गच्छति ग्रामः इति प्रयोगः. कः अर्थः ग्रामः गच्छति? ग्रामः कुत्रापि न गच्छति, वयं ग्रामं गच्छामः, किन्तु मार्गस्य अविषम निष्कण्टकतया. ग्रामगमनस्य मार्गः अत्यन्तं सरलः उत्तमः अस्ति, प्रत्यासन्नतया च. ग्रामः बहु निकटे विद्यते, अतः श्रमं विना प्राप्त्याश्रयः भवति. यु केन् रीच् द विलेज् विथौट् रियलैजिङ्ग् दट् युर् गोयिङ्ग्, ऐ मीन् यु द पात् इस् सो गुड् दट् यु रीच् इट् बिफोर् यु नो इट्. सो विच् मीन्स् इट्स् एस् इफ् द ग्राम इट् सेल्फ् केम् टु यु. गच्छति ग्रामः, वस्तुतः देवदत्तः ग्रामं गच्छति, किन्तु प्रयोगः गच्छति ग्रामः. तत्र यथा स्थाली पचति, यथा असिष्ठिनति, तथा ग्रामः गच्छति इति प्रयोगः. अतः कर्मणः कर्तृत्वविवक्षायां द्वेधा प्रयोगः. यदि क्रिया कर्तृस्थक्रिया तर्हि कर्मवद्भावः नास्ति. इट् लुक्स् लैक् अ नार्मल् कर्तरि प्रयोग. अफ्कोर्स् ऐ मीन् टु अण्डर्स्टाण्ड् इट् विल् रिक्वैर्मेण्ट्. ग्रामः गच्छति इत्युक्ते कः इति अर्थविशेषः अस्ति, किन्तु रूपे विशेषः नास्ति. किन्तु पच्यते ओदनः, ओदनः पचति इति प्रयोगः न भवति, ओदनः पच्यते इत्येव प्रयोगः. तत्र कर्मवद्भावः दृश्यते कर्मस्थक्रियासु. न हि पक्वापक्वतण्डुलेषु इव गतागतग्रामेषु वैलक्षण्यम् उपलभ्यते. पक्वापक्वतण्डुलेषु, पक्वेषु तण्डुलेषु, अपक्वेषु तण्डुलेषु च यः विशेषः, गते ग्रामे अगते वा ग्रामे तादृशः विशेषः नास्ति. वेदर् हि रीचस् द ग्राम आर् नाट् यु केन् नाट् टेल् बै लुकिङ्ग् एट् द ग्राम. That is why it is not a karmasthakriya, it is a kartrasthakriya. Atayeva tatra kim na bhavati, karmavadbhavah na bhavati. Karmasthakriyasveva karmavadbhavah, kartrasthakriyasu karmavadbhavah na bhavati. Iti siddhanta. Anyanyapi udaharanani diyante, arohati hasti. Hasti pakaha hastinam arohati. The mahut climbs the elephant. इत्येव अर्थः. किन्तु हस्ती आरोहति इति प्रयोगः. कोऽर्थः? अङ्कुशाघातादि हस्तिपकव्यापारं विना स्वयमेव न्यग्भवन् आरोहणाश्रयः भवति. सो जनरली टु मौण्ट् एन् एलिफेण्ट् द माहुत् हेस् टु से पिञ्च् इट् आर् इट् हि हेस् टु प्रिक् इट् वित् द अङ्कुश, मेक् इट् बेण्ड् सो दट् सम्बडि केन् क्लैम्ब् इट्. बट् if the elephant is so accommodative that without any encouragement from the hastipaka it itself bends down and helps somebody climb it, hasti arohati iti prayogah. Hasti to narohati, astatah yaha anyah kaschid arohati. Prayoga visheshah. Karmavadbhava is always an idiomatic expression, it is not a literal expression. Hasti narohati atra hasti astatah karma, hastipakah hastinam arohati ityatra कर्मणः कर्तृत्वविवक्षायां हस्ती आरोहति इति प्रयोगः. दिस् इस् आल्सो अ कर्तृस्थक्रिया, बिकास् बै लुकिङ्ग् एट् द एलिफेण्ट् यु केन् नाट् नो वेदर् इट् हेस् बीन् मौण्टेड् आर् नाट्. कर्मणि हस्तिनि कोऽपि विशेषः न भवति, वेदर् यु क्लैम्ब् इट् आर् नाट् देर् इस् नो डिफरेन्स् इन् द एलिफेण्ट्, विजिबल् डिफरेन्स् इन् द एलिफेण्ट्. अतः अत्रापि कर्मवद्भावः नास्ति. सो यत्र कर्मस्थक्रियाः यथा ओदनः पच्यते, काष्ठं भिद्यते इति, तत्र कर्मवद्भावः भवति. कर्तृस्थक्रियासु तु कर्मवद्भावः न भवति. अन्यदेकमुदाहरणं दीयते दीक्षितैः. वि शुड् आल् होप् फर् दिस्. अधिगच्छति शास्त्रार्थः स्मरति श्रद्दधाति च. शास्त्रार्थः अधिगच्छति, स्मरति श्रद्दधाति. कः अर्थः? अधिगच्छति मीन्स् टु अण्डर्स्टाण्ड्, smarati is to remember, shraddhadhati is to have faith in shastrartha. Satah kaschit devadattah shastrartham adhigacchati, understands the shastra, shastrartham smarati, शास्त्रार्थं श्रद्धधाति इति प्रयोगः किन्तु शास्त्रार्थः स्वयं अधिगच्छति इट इज अंडरस्टूड बाय इटसेल्फ स्मरति मीन्स इट इज रिमेंबर्ड बाय इटसेल्फ आई मीन इट इज सो इजी टू रिमेंबर दैट यू डोंट हैव टू पुट एनी एफर्ट टू अंडरस्टैंड और टू रिमेंबर और टू पुट अ फेथ इन सो व्हेन यत्कृपा लेशतस्तस्मै नमोस्तु गुरवे सदा यस्य गुरोः कृपा लेशतः जस्ट बाय अ स्मॉल स्पेक ऑफ हिज ग्रेस शास्त्रार्थः स्वयं अधिगच्छति स्वयं स्मरति स्वयं श्रद्धधाति तस्मै गुरवे नमः इति कश्चित् श्लोकः तत्र अयं कर्मणः कर्तृत्व विवक्षा दृश्यते अत्रापि यत्किमपि वस्तुतः शंकराचार्यस्य कृपाबलात् तोटकः स्वयं अधिगतवान् तथा यदि गुरुः तादृशः तर्हि भूषणसारोऽपि भवति महाभाष्यमपि भवितुम् अर्हति तत्तु गुरोः कृपामवलम्ब्य भवति तत्तु शिष्यस्य गुरुकृपालेशादेव शास्त्रार्थः निश्चयविषयो भवति स्मृतिविषयो भवति श्रद्धाविषयश्च भवति स्वयम् अर्थात् छात्रस्य प्रयत्नविशेषं विना इति विवक्ष दट् इस् ऐ मीन् दट् श्लोक वेरी सिग्निफिकेण्ट्लि टेल्स् वाट् इस् द यूस् आफ् सच् क्रिया इट् सेस् दट् द छात्र डस् नाट् हेव् टु पुट् एनी एफर्ट् इफ् द गुरुकृपा इस् देर् सो द शास्त्र देम्सेल्स् रिवील् देम्सेल्स् टु द शिष्य इति विवक्ष एवं विवक्षाविशेषे एव प्रयोगः न तु सामान्ये अयं कर्मवद्भावः अत्रापि शास्त्रार्थे क्रियाकृतविशेषः न दृश्यते वेदर् यु हेव् अण्डर्स्टुड् आर् नाट् शास्त्रार्थं विल् नाट् चेञ्ज् अतः इयं कर्तृस्थक्रिया कर्तृस्थक्रियायां कर्मवद्भावः न भवति यत्र कर्मस्थक्रिया तत्र कर्मवद्भावः भवति से यु ईट् संथिङ्ग् से फलं खाद्यते बिकास् देर् इस् अ डिफरेन्स् ऐ मीन् बिट्वीन् एन् एपल् विच् इस् ईटन् आर् रदर् हाफ् ईटन् एण्ड् नाट् अतः यत्र कर्मणि क्रियाकृतः विशेषः दृश्यते ताः क्रियाः कर्मस्थक्रियाः तत्र कर्मवद्भावः भवति कर्मवद्भावः नाम कः यत्र कर्मणः कर्तृत्वेन विवक्षा तत्र कर्तरि लकारे विहिते अपि कर्मवत् कार्याणि भवन्ति द फार्म् द क्रियापद फार्म् एस्पेशलि लुक्स् लैक् अ कर्मणि प्रयोग बट् इट् इस् एक्चुलि अ कर्तरि प्रयोग एण्ड् द कर्ता इस् इन् प्रथमा विभक्ति वेरस् इफ् इट् इस् अ कर्तृस्थक्रिया विवक्षा भवति कर्तुः कर्मणः कर्तृत्वेन विवक्षा भवति किन्तु रूपे भेदः न दृश्यते इट् विल् लुक् लैक् अ नार्मल् कर्तरि प्रयोग यथा गच्छति ग्रामः यथा वा हस्ति आरोहति सो दिस् इस् द बेसिक्स् आफ् सम्थिङ्ग् विच् वी काल् कर्मवद्भाव सो बेस्ड् आन् दिस् ही रेजस् ए फ्यू क्वश्चन्स् इन् द फोर्त् कारिका विच् वी विल् सी इन् द नेक्स्ट् क्लास् अग्रिमवर्गे चतुर्थकारिकां पठामः अद्य तृतीयकारिकायाः अर्थः अवगतः फलव्यापारयोस्तत्र फले तङ्यक्चिणादयः व्यापारे शप्ष्णमाद्यास्तु द्योतयन्त्याश्रयान्वयम् अर्थात् यक् चिन् इत्यादयः कर्मद्योतकाः भवन्ति शप्ष्णमादयः कर्तृद्योतकाः भवन्ति इत्येवं तृतीयकारिकायाः अर्थः अवगतः कर्मवद्भावस्य परिचयोऽपि प्राप्तः अग्रिमकारिका अग्रिमवर्गे पठिष्यते एनी क्वेश्चन्स् कर्मणि क्रियाकृतः विशेषः न दृश्यते सः जानाति वा न वा इति ज्ञायेत किन्तु कर्मणि सः धर्मं अथवा सः भगवद्गीतां जानाति भगवद्गीतायां कोऽपि विशेषः न भवति यत्र कर्मणि क्रियाकृतः विशेषः दृश्यते ते कर्मस्थक्रियाः कर्तृस्थक्रिया कर्तरि विशेषः दृश्यते एव सः जानाति अथवा सः अधिगच्छति दृश्यते कर्मणि क्रियाकृतः विशेषः न दृश्यते इत्यतः कर्मस्थ क्रिया अथवा कर्तृस्थ क्रिया इति भेदः। कारिकाः पठामः। फणिभाषित भाष्याब्धेः शब्दकौस्तुभ उद्धृतः तत्र निर्णीत एवार्थः संक्षेपेणेह कथ्यते। फलव्यापारयोर्धातुराश्रयेतिङस्मृताः फले प्रधानं व्यापारस्तिङर्थस्तु विशेषणम्। फलव्यापारयोस्तत्र फले तङ्यक्षिणादयः व्यापारे शप्श्नमाद्यास्तु द्योतयन्त्याश्रयान्वयम्। उत्सर्गोऽयं कर्मकर्तृविषयादौ विपर्ययात् तस्माद्यथोचितं ज्ञेयं द्योतकत्वं यथागमम्। व्यापारो भावना सैवोत्पादनासैव च क्रिया कृण्यो कर्मकतापत्तेर्न हि यत्नोऽर्थ इष्यते। किन्तोत्पादनमेवातः कर्म वत्स्याद्यगाद्यपि कर्मकर्तर्यन्यथा तु न भवेत्तदृशेरिव। निर्वर्त्ये च विकार्ये च कर्मवद्भाव इष्यते न तु प्राप्ये कर्मणीति सिद्धान्तोऽत्र व्यवस्थितः। तस्मात् करोतिर्धातोस्याद्व्याख्यानन्नत्वसौतिङाम् पक्ववान् कृतवान् पाकम् किङ्कृतम् पक्वमित्यपि किं कार्यं पचनीयं चेत्यादि दृष्टं हि कृत्स्वपि किञ्च क्रियावाचकतां विना धातुत्वमेव न। सर्वनामाव्ययादीनां यावादीनां प्रसङ्गतः न हि तत्पाठमात्रेण युक्तमित्याकरे स्फुटम्। धात्वर्थत्वं क्रियात्वं चेद्धातुत्वं च क्रियार्थता अन्योन्यसंशयस्पष्टस्तस्मादस्तु यथाकरम्। अस्त्यादावपि धर्म्यंशे भाव्येऽस्त्येव हि भावना अन्यत्राशेषभावात्तु सा तथा न प्रकाशते। फलव्यापारयोरेकनिष्ठतायामकर्मकः धातुस्तयोर्धर्मिभेदे सकर्मक उदाहृतः। आख्यातशब्दे भागाभ्याम् साध्यसाधनरूपता प्रकल्पिता यथा शास्त्रे सघन्यादिष्वपि क्रमः। साध्यत्वेन क्रिया तत्र धातुरूपनिबन्धना सिद्धभावस्तु यस्तस्याः सघन्यादिनिबन्धनः। सम्बोधनान्तं कृत्वोऽर्थाः कारकं प्रथमोऽवतिः धातुसम्बन्धाधिकारनिष्पन्नमसमस्तनन्य तथा यस्य च भावेन षष्ठी चेत्युदितं द्वयम्। साधुत्वमष्टकस्यास्य क्रियैवावधार्यताम् यदि पक्षेऽपि वत्यर्थः कारकञ्जनन्यादिशो अन्वेति त्यज्यताम् तर्हि चतुर्थ्या स्पृहि कल्पना अविग्रहागतादिस्था यथा ग्रामादिकर्मभिः क्रिया सम्बध्यते तद्वत् कृतपूर्व्यादिषु स्थिता। कृत्वोऽर्थाः क्त्वा तु मुन्वत्स्युः इति चेत्सन्ति हि क्वचित् अतिप्रसङ्गो नोद्भाव्योऽभिधानस्य समाश्रयात्। भेद्यभेदकसम्बन्धोपाधिभेदनिबन्धनम् साधुत्वं तदभावेऽपि बोधो नेह निवाद्यते। श्रीलक्ष्मीरमणं नौमि गौरीरमणरूपिणम् स्फोटरूपं यतः सर्वं जगदेतद्विवर्तते। नेक्स्ट् क्लास् इस् टुमोरो सेम् टैम्। ओके।